सर्वेषां स्वागतं ध्येयमन्त्रेण आरम्भं कुर्मः अस्तु भगिनि
पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम् संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानम् आहुतं मन्ये वन्दे संस्कृतमातरम् हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्ष्य ननु कुर्याम विश्वं शान्तिसमन्वितम् हरि ॐ श्रीगुरुभ्यो नमः हरिः ॐ
सुन्दरं भगिनी बहु सुन्दरं धन्यवादः
नमस्कारं भगिनी नमस्कारं भगिनि परमेश्वर
स्वागतं महोदय परमेश्वर महोदय अन्य कोऽपि अस्ति वा नूतनछात्रः अस्तु इदानीं वयं एकवारम् अभ्यासं कुर्मः शब्दं स्वीकृत्य का आरम्भं कर्तुमिच्छति वाक्यं वदामः उदाहरणार्थं सीता अस्ति सीतां पश्यामि सीतया सह किमपि करोमि सीतायै ददामि सीतायाः शाटिकां स्वीकरोमि सीतायाः शाटिका सम्यक् अस्ति सीतायां मम विश्वासः अस्ति मम प्रीतिः अस्ति इत्यादि का आरम्भं कर्तुम् इच्छति
भगिनी ऐ फगाट्
वदतु अस्तु केतकी भगिनी
ओ माय गॉड
चिन्ता मास्तु सम्बडी एल्स् का वक्तुम् इच्छति
भगिनी ऐ एम नॉट श्योर
यट इट्स ओके भगिनी सो वी विल नॉट डू दिस ओके सो वी विल गो फॉर अभ्यास दर्शन वदतु भगिनी वदतु
भगिनी ऐ केन् ट्रै
निश्चयेन
सो ऐ विल् ट्रै स्त्रीलिङ्ग ईकारान्त
उत्तमम्
एण्ड् ऐ विल् ट्रै वित् लोट् लकार प्रथमा विभक्ति
Bhagini, but one thing for Lot Lakara, it is only for Ajna, right? So it works yes. only for Sambodhana. Hello?
Right, Bhagini. So what I've done is, I have tried where possible to use Lot Lakara. I must confess that it's not all of them, but at least in a few places, I have tried to. Try to incorporate just so that I get familiar with all the
nishchayam uttam
so the first one of course is not lot lakara atra droni asti I'm looking at droni
asti
atra droni asti then dvitiya vibhakti malati dronim anayatu
Oh, you're doing it like that. Astu, uttama. Dronim anayatu. Uttama.
Then, tritiya, dronya sasyani sinchatu. Then, chaturthi, dronyai sthapayitum ekaha utpitikaha nayatu.
So, atra... द्रोणीं स्थापयितुमेव द्रोणीं
नाट् चतुर्थी भगिनी द्रोण्यै नो फार् द द्रोणी गेट् अ स्टूल् दट् वुड् बि राङ्ग्
No, because stapayatum is the key
for okay,
stapanartam. So droni
stapanartam. Okay, okay. So I have to modify that as dronyai stapanartam.
Dronim stapanartam eva. So atra
there also it is dronim only, Bhagini.
So atra dronyai iti vaktum icchati chet aham dronyartam apanam gatavati. Aham dronyai apanam. So like that.
Okay.
Dronyartam apanam gatavati. Atava dronyai apanam gatavati.
Or if I just remove sthapayutum completely, Bhagini, suppose I just say dronyai ekaha utpitikaha nayatu, would that be okay? Would that be chaturthi?
Yeah.
For the droni, get a stool.
Okay, yeah.
Or is that too far-fetched, Bhagini?
Little bit far-fetched, but you know, it's okay. It will work. It will work.
Okay. Then panchami, dronyah jalam malina patre patayatu.
Samyak.
Then shashti, dronyah nalah dharatu. Hold the bucket with its handle. Is that okay, Bhagini?
Punah vadatu.
Dronyah nalah dharatu. Hold the handle of the bucket.
So atra dronyah nalam grinnatu, right?
Grinnatu. Okay. Okay. Nalam grinnatu. Okay. Then saptami dronyam jalam asti chet parayatu. Then sambodhanam, I just made up something. Droni tvam upayoga karaha bhavatu. Be so useful.
Upayoga karam bhavat. Uttamam bhagini. Anya kopi vaktum icchati va? No chet abhyasa darshini pati gacchami.
Bhagini aham vaktum icchati.
Vadatu bhagini.
I have tried. Please correct me if I'm wrong.
Sure.
Krishna pulingam. Krishnah janmam praptavan. Krishnam purva janmam aham pashyami.
Krishnasya kalo krishnasya purva janmam.
What I mean is mama purna janmam aham krishnam pashyami, like that.
Astu mama purva janmani aham krishnam
drishtavati. Krishnena mama janmam sapalam bhavati. Krishnaya mama janmam arpayami.
Uttamam.
Krishnat mama janmam uttamam abhavat.
Krishna. Krishnat Asirvadatva. Krishnat Asirvadat Mama Janmam Purtam Bhavati.
Krishnat Asirvadat Mama Janmam Uttama Bhavat. Krishnasya Janmena Uttama Karyaha Bhavat.
Janmana. Janmana. Because Janma is.
Sorry.
We haven't learned that, no? So that's why. Krishnasya janmana.
Janmana uttama karyaha bhavat. Krishne koti gandharva lavanya tejas asti.
Uttama. Tejas asti. Uttama. Samya.
Sambodhana shrehoi bhagini.
Vadatu.
Hey Krishna. Mama bhaktim vashikuru.
उत्तमं सम्यक्
धन्यवादः
धन्यवादः अन्य कोऽपि वक्तुम् इच्छति वा नो चेत् वदति वा नाम वदतु
शारदा
भगिनी अन्य भगिनी अपि उक्तवती खलु नाम किं
सविता
सविता शारदा अस्तु वदतु
सूदः भगिनी शब्दः अकारान्तपुल्लिङ्ग सूदः वक्तुम् इच्छामि सः सूदः मम उपहारगृहाय एकं सूदम् आवश्यकम्
अर्थं किं भगिनि सूदं
शेफ् सूदः शेफ्
शेफ् वा अस्तु
न वा भगिनि
नूतनपदम् इति चिन्त्य अस्तु
उपहारगृहाय एकं सूदम् आवश्यकम्
अस्तु
एतेन सूदेन सह सर्वे पचतुम् इच्छन्ति वा भगिनि पचितुं
पक्तुम्
इच्छन्ति सर्वे सूदाय उपहाराणि ददति अहं सूदात् नूतनपदार्थं ज्ञातवती सूदस्य पाकं रुचिकरम् अस्ति मम सूदे विश्वासम् अस्मि
विश्वासं करोमि विश्वासं करोमि अत्र विश्वासः अस्ति मम सूदे अहं विश्वसिमि अथवा अहं विश्वासं स्थापयामि मम विश्वासः अस्ति इति
विश्वासः अस्ति हे सूदः मम उपहारगृहं मा गच्छतु
उपहारगृहात् मा गच्छतु खलु उपहारगृहात् मा गच्छ हे सूद एव सूद अस्तु उत्तमं भगिनि
धन्यवादः
बहु सम्यक् अस्ति अस्तु अन्य
भगिनि ऐ ट्रै प्लीस् हेल्प् मी
अस्तु भगिनि
वनम् ऐ वुड् लैक् टु टेक् वनं वने वनानि
अस्तु
बालकः वनं गच्छति बालकः वनं गच्छति वनम् अति सुन्दरम् अस्ति वनेन भिन्नरूपेण वृक्षः पक्षी सन्ति वनेन
तत्र वने सन्ति
सो तृतीय वाट् विल् ऐ यूस् भगिनि वनं वने वनानि
वनेन अहम् आनन्दम्
अनुभवामि वनाय वनाय एकं पर्णकुटीरम् अस्ति
वनाय सो अत्र अपि वने एव वने कुटीरम् अस्ति वनाय रक्षणं अहं कर्तुम् इच्छामि वा अथवा सर्वे
वनाय रक्षणं
अथवा वनाय रक्षणम् आवश्यकम्
अहम् आवश्यकम् अस्ति वनात् मध्ये एकं सरोवरम् अस्ति
वनस्य मध्ये, वनस्य मध्ये अत्र वनात् इति वनात् बहिः गच्छामि, वनात् इति भवति, वनस्य मध्ये, वनस्य वामतः, वनस्य दक्षिणतः,
वनस्य मध्ये वनात् बहिः गच्छति, बहिः गच्छति
वनात् आम् वनात् बहिः मृगाः न गच्छन्ति वा
देन् वनस्य चलतु, वनस्य मध्ये एकं सुन्दरं तडागम् अस्ति.
हा उत्तमम् उत्तमम् उत्तमवाक्य
वने 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 अहं सर्वं संरक्षाम कुर्मः.
वने किं भगिनि, वने किम् अस्ति वने?
अहं सर्वं संरक्षामि.
वनं संरक्षामि, वनं संरक्षामि,
अहं सर्वे संरक्षामि.
वनाय संरक्षणम् आवश्यकं. वने किम् अस्ति वने?
सप्तमी एव वने, वनयोः वनयोः वने जीवजन्तुः अस्ति.
हा जन्तु जन्तवः सन्ति, जीवजन्तवः सन्ति, जन्तव जन्तु जन्तू जन्तवः जन्तवः सन्ति,
जन्तवः
सम्यक्.
जस्ट् मेड् एन् अटेम्प्ट् भगिनि.
वेरि गुड् भगिनि, दिस् इस् हौ वी हव् टु डु. ओके
परमेश्वरन्.
आं महोदय.
वृक्षः.
वृक्षः उत्तमम्.
वृक्षम् ओके. वने विविधतरवृक्षः सन्ति, सोरि
वृक्षाः सन्ति
सन्ति. द्वितीया विभक्ति वनम् उपयोगम् अस्ति, सोरि वनं
भवती वृक्षं पश्यति वा, वृक्षम् इच्छति वा?
वने अनेकवृक्षं पश्यामि,
वृक्षान् पश्यामि, वृक्षान्
पश्यामि. वनेन उपयोगवस्तुगुलु वस्तु उपयोगवस्तूनि
उत्तम वस्तूनि
मिलता क्या बोलता है वस्तूनि
कुर्वन्ति
प्राप्ति कुर्वन्ति
प्राप्नुमः प्राप्नुमः उत्तमम्.
वनाय लोके उपयोगसन्ति न क्या
वृक्षाय वृक्षाय
वृक्षाय सन्ति
वृक्षार्थं जलं
वृक्षजलं
ददामि वा ददामि वा वृक्षाय जलं ददामि
वनात्
वनात् वनात् अथवा वृक्षात्
वनात् अनेक प्राणी मृगाणि पक्षी च sandhi. No, sorry, vanat is not like that. Is that correct?
No, what he said was vane, vane.
Oh, vane, sorry, it is vanat, no?
Vanat.
Vanat.
Vanatva, vrikshat vaktam icchati va.
Oh, vrikshat, okay.
Vrikshat.
Vrikshat. What do you call for nidal?
Chaya.
Chaya. Praptonamahi, na kya?
So, prapnamaha, atava prapta.
Prapnamaha.
Prapnamaha.
Vanasyam, sorry, vrikshasya. Niche.
Adaha.
Tale. Vrikshasya adaha. Which are adaha? Bhava. Aham. Asti.
Asmi. Uttamam. Vrikshasya adaha aham asmi. Asti.
Okay. Then Sambodhana, he vriksha.
Vrikshe. Vrikshe. Kim asti?
Oh, vrikshe. Sorry. Vrikshe. Vividatara pakshigala sanpakshi.
Pakshinaha.
Pakshinaha sandhi.
Santi. Vivida pakshinaha santi.
Sandhi. He vriksha. He vrikshe.
He vriksha.
Mama. Sorry. Mama. Palam. Dada. Dadatu.
Dadatu. He vriksha. Palam dadatu.
Palam dadatu.
Mahyam palam dadatu.
Mahyam palam dadatu. Thank you.
Dhanyavadam Madhya Uttama. Anya kopi? Asta tari.
Bhagini, can I, may I make one more attempt, if you permit me, with vriksha?
Asta.
Are we running out of time? We can go ahead.
No, it's okay, Bhagini.
Is it okay? Okay. Prathama, mama graha samipe ekaha vriksha asti. Dvitiya, aham tat vriksham sinchami. Tritiya, vrikshena vayam anekani pithopakaranani kartum shaknumaha. Chaturthi, vrikshaya dohadam apekshate. Panchami, vrikshat phalani patanti. Shashti, vrikshasya pushpani sundaram santi.
Sundarani santi.
Sundarani santi. Kshamyatam bhagini.
Chintam.
Saptami, vrikshe pakshinaha santi. Sambodhanam, he vriksha, aham tubhyam namami.
Uttam. Samyak bhagini.
Beautiful.
धन्यवादः
धन्यवादः अस्तु अन्य कोऽपि अस्तु तर्हि अभ्यासदर्शिनी वयं त्वा ल्यप् इति पठितवन्तः एतत् सम्भाषणं न पूरितवन्तः खलु वयम् आं भगिनि अस्तु पुनरेकवारं पठामः वा अस्तु गोपिका भगिनी आरम्भं करोतु
आं भगिनि प्रकाशः रमेश इदानीं कुत्र कुत्र गमनं भवतः रमेशः आदौ इतः पत्रालयं गच्छामि तत्र गत्वा बन्धं प्रेषयित्वा मूल्याङ्कान् क्रीत्वा कार्यालयं प्रत्यागच्छामि कार्यालये मूल्याङ्कं धनगणानां च दत्त्वा वित्तकोशं गच्छामि तत्र धनं पूरयित्वा एकं
डिडि एव डिमाण्ड् ड्राफ्ट् इति
अस्तु डिडि स्वीकरोमि. तत्समये तत्रैव उपविश्य पत्रं लिखित्वा पत्रं डिडि च प्रेषयित्वा.
अस्तु सो अत्र वयं पूर्वमेव जानीमः धातु एवमेव अस्ति चेत् त्वान्तं भवति गम् धातु गत्वा क्रीत्वा पूरयित्वा दत्त्वा. परन्तु अत्र उपविशति उपविशति सो उप इति उपसर्गः अस्ति अतः उपविश्य भवति. य अस्ति चेत् ल्यप् सो अत्र लकारः गच्छति पकारः गच्छति य एव तिष्ठति. एवमेव त्वान्तम् अस्ति चेत् इक् गच्छति ककारः गच्छति त्वा एव तिष्ठति. सो अत्र अवगच्छन्ति वा अत्र आदौ इत्युक्ते प्रथमं प्रथमम् इतः पत्रालयं गच्छामि. सो पत्रालयं गत्वा इत्युक्ते तत्र गत्वा बन्धं प्रेषयित्वा. सो अत्र त्वान्तं लबन्तम् अपि च तुमुनन्तमपि समानमेव. तुमुनन्तम् अस्ति चेत् ततः पूर्वं कर्मपदम् अस्ति चेत् तत् द्वितीया विभक्ति भवति. बन्धं प्रेषयित्वा बन्धः इति न भवति बन्धं प्रेषयित्वा मूल्याङ्कान् क्रीत्वा कार्यालयं गत्वा. अत्र प्रत्यागच्छति प्रत्यागच्छामि इति अस्ति परन्तु गत्वा इति अस्ति चेत् कार्यालयं गत्वा इति भवति. कार्यालये मूल्याङ्कान् धनगणान् इत्युक्ते कियत् धनम् अहं दत्तवान् इति सर्वं विवरणं दत्त्वा वित्तकोशं गच्छामि. अत्र किमपि नूतनविषयः नास्ति इति चिन्तयामि. तत् समये इति एकपदे अस्ति पदद्वयम् अस्ति चेत् कथं भवति
तस्मिन् समये
तत् इति पदस्य सप्तमी विभक्ति आवश्यकं. किमर्थं सप्तमी विभक्ति आवश्यकम्
समये
समये इति अस्ति अतः तस्मिन् इति भवति. प्रश्नः अस्ति वा अत्र
भगिनि बन्धम् इत्युक्ते किं
बन्धम् इत्युक्ते वयं पेकेज् इति वदामः खलु तत्
ओके अस्तु भगिनि धन्यवादः
धन्यवादः अस्तु अन्केतके भगिनि अग्रे नास्ति वा अस्तु मालति भगिनी पठितुम् इच्छति वा पठतु
प्रकाशः शृणोति भगिनी
आम् भगिनी शृणोमि
पत्रालयं गत्वा पत्रस्य भारं ज्ञात्वा उचितं मूल्याङ्कं स्वीकृत्य पत्रे संश्लेष्य निर्यासेन पिहितपत्रं पिहितं कृत्वा पत्रं पेटिकायां निवेश्य.
सो अत्र प्रकाशः वदति भवान् किं किं करोति तत् सर्वं किमर्थं वदति इति परिहासेन वदति सः. पत्रालयं गत्वा पत्रस्य भारं ज्ञात्वा केवलं पत्रालयं गत्वा आगच्छामि इति वदति चेत् तत् पर्याप्तम् इति अर्थे सः वदति. पत्रालयं गत्वा पत्रस्य भारं ज्ञात्वा उचितमूल्यकं स्वीकृत्य अत्र य भवति. किमर्थं स्वीकृत्य इति अस्ति उपसर्ग अस्ति. सो स्वी इति उपसर्गरूपेण भवति स्वी इति उपसर्गः नास्ति इति चिन्तयामि, परन्तु अत्र उपसर्गसहित भवति, उपसर्गवत् भवति. स्वी कण्ठस्थीकृत्य, स्वच्छीकृत्य इत्यादि उपसर्गवत् भवति. स्वीकृत्य पिहितपत्रे
छ्वी प्रत्ययः वा भगिनि?
स्वी इति प्रत्ययः नास्ति इति चिन्तयामि भगिनि.
आं भगिनि, सं प्रत्यय नेम् यू सेड् लास्ट् इयर् भगिनि, छ्वी सं प्रत्यय उपसर्गे प्रत्ययः इति.
आमाम् उपसर्ग
स्वी
ऐ डोण्ट् थिङ्क् इट् इस् एन् उपसर्ग भगिनि, सो दट्स् वाट् ऐ एम् ट्रैङ्ग् टु से. उपसर्गवत् इत्युक्ते उपसर्गः इव अस्ति इति अहं चिन्तयामि.
अस्तु भगिनि,
एकनिमिषं पश्यामि. स्वी इति मूल्याङ्कानि पिहितपत्रे मीन्स् एन्वेलोप्.
सो इट् इस् सप्तमी
पिहितपत्रे. पिहितपत्रे
संश्लेष
संश्लेष मीन्स् टु स्टिक् मूल्याङ्कान् स्टाम्प्स् मूल्याङ्कान् स्वीकृत्य पिहितपत्रे संश्लेष्य स्टिकिङ्ग् इट् आन् द पिहितपत्रे. निर्यासम् इत्युक्ते ग्लू. निर्यासेन पिहितपत्रं पिहितं कृत्वा, पिहितं मीन्स् टु एन्वलप्, ऐ मीन् टु to close it,
to close
pidanam krutva, pihitam krutva, samanartaka padam, pidanam krutva, pihitam krutva, patram petikaya niveshya, petika itite
box, letter box.
And niveshya ni is the upasarga there, right? And veshya is to send.
Correct.
Okay.
Right, Bhagini. Niveshya, Bhagini, if is a upsarga, right?
So it is, yeah, it becomes a yeah, satya. So atra kritva evameva asti, ataha kritva, kimartam kritva upasargaha nasti, atra kritya iti asti, ataha upasargaha asti. उपसर्गः अस्ति. अहम् एकनिमिषम् आगच्छामि. अहम् एकनिमिषम् आगच्छामि, भवन्तः पठतु मम कार्याणि इति. का पठति? शारदा भगिनी वा पठतु कृपया. अहम् आगच्छामि इदानीम्.
रमेशः, मम कार्याणि भवतः उपहासस्य विषयाः खलु? प्रकाशः, मित्र कोपः मास्तु, विनोदार्थं तथा उक्तं मया.
वाट् इस् उपहासस्य?
शी सेड् फोर्
मेकिङ्ग् फन् ऐ थिंक्. हास्य अण्ड् उपहास्य. ओके,
आफ् ह्यूमर् इट् इस् षष्ठी.
षष्ठी ऐ नो. But meaning I was upahasya. Hasya is laugh and upahasya is making fun.
Upasarga.
Yeah, upasarga.
Yeah.
Yeah.
Mama karya.
My work is a matter of laughter for you. Yes.
Asti dhanyavadah. Vinodartham. Vinodartham. Yeah.
And Maya is again Shashti.
Maya is which one is it? Like Maya Saha Agachato.
Oh, so it is Tritiya.
Tritiya. तृतीया
कोपं मास्तु विनोदार्थं तथा
उक्तं मया सो वेन् वि यूस् द क प्रत्यय वि यूजुवलि सी तृतीया
as uktam
uktam uktam is dasya pratyaya
so if it had been uktavan it would have been aham vision bhagini
aham uktama samyak aham uktama vinodartham tatha aham uktava
vibhajya also bhagini suppose
is this vibhajya
No, bhagini vibhajya prayogah itikte katam bhavati vinodartam aham karomi vachanam karomi or something like that
karoti or something should come
karoti krutavan vachanam tata vachanam krutavan vadami will become vachanam karomi वाचं करोमि इत्यादि
ओके
भगिनी हियर् अ वर्ड् निवेश्य हेस् बीन् यूस्ड् ऐ मीन् इट् इट् टु मीन् दट् पुट् इट् इन् टु द पोस्ट् बाक्स् सो सपोज् वि आर् चोज़न् टु यूस् द वर्ड् स्थापयति वाट् वुड् बि द ल्यवन्तपदम् आफ् स्थापयति It, can it be used first of all and
tapya,
so we can also say patram petikayam sthapya right
sthapya I will probably use sthapya
dhanyavad bhagini
dhanyavad so atra they want to show twantam lyavantam mixed so bahu samyak asti
sentence how will it be translated bhagini vinodartham tatha uktam maya
aham vinodartham aham uktavan
for fun sake I told like that
vinodartham aham tatha uktha vadat bhagini
uktam maya how will it come bhagini it was told
by me it was told by me Sanskrita bhashayam, they use the passive voice a lot.
Oh, this is kartri prayoga. Okay.
Karmani prayoga. Karmani prayoga. Satyam. So, atra, karmani prayoga, the karta is not given importance. Karma is given importance. Atra. So, atra, aham, aham uktavan. Uktavan, if I am pullinga, I say uktavan, aham uktavan. Strilinga vasti chet, aham uktavati. So, atra, karta gets the prominence. That's why it's called kartari.
So, here it is karmani.
Karmani.
Yeah, so, maybe it's because they don't want to give importance to the I. They use it in a passive voice a lot.
It could be that, but I don't know what the philosophical reason. Paranto, we see the Karmani Prayoga a lot, especially in stories.
Oh. Okay.
Asta. Agre Patamaha. Sandhya Bhagniva Patata.
Sorry, Bhagini. I have problems unmuting. Yada ekaha karyadvayam karoti, tada purva karyavachakasya kriyapadasya tva pratyaya bhavati. Udaharanam, Ramaha pathati, Ramaha likhati, Ramaha pathitva likhati. सीता फलं कर्तयति सीता ददाति सीता फलं कर्तयित्वा ददाति
अस्तु भगिनि धन्यवादः सो अत्र एकः एकः एव कार्यद्वयं करोति मुख्य अंशः अस्ति अत्र त्वान्तमपि तथा एव लेबन्तमपि तथा एव एकः एव कर्ता कार्यद्वयम् अथवा त्रयं वा करोति तथा पूर्वपदस्य एव त्वान्तं भवति अन्तिमक्रियापदस्य न अस्तु अग्रे प्रश्नः अस्ति वा कर्तयति कर्तयित्वा सीता ददाति अस्तु अग्रे सविता भगिनि
आं भगिनि यत्र रामः पठति भीमः खादति तत्र रामः पठित्वा भीमः खादति इति वक्तुं न शक्नुमः यतः पठनकर्ता रामः खादनकर्ता भीमः एव कर्तृभेदः अस्ति अत्र एककर्तृकत्वं यत्र भवति तत्र एव स्वप्रयोगः
अस्तु सो अत्र कर्ताद्वयम् अस्ति चेत् तत्र त्वान्तं ल्यबन्तं कार्यं न करोति अस्तु एककर्तृत्वं यत्र भवति तत्र एव त्वा प्रत्ययोगः भवति एककर्तृत्वम् एककर्तृकत्वम् अवगच्छन्ति खलु एकः एव कार्यद्वयं वा त्रयं वा करोति चेत् त्वान्तम् अथवा ल्यबन्तं भवति नो चेत् न भवति
This is very interesting, Bhagini. But suppose one had to say, while Rama was eating, Krishna was looking. How do we say that, Bhagini?
No, we cannot say that. Hello? We can only say, Kartum Samaye Krishna.
Kartum Samaye. Okay. Okay.
Because, Bhagini,
Bhagini?
Sorry.
Bhagini, because there are two karta, right?
Two karta. So we cannot say the twanta.
Only one karta we can use twant prayoga. Dhanyavad.
Uttama prashna. Astu. Somebody else wanted to say something? Anya? Nasti. Astu. Agre? सविता भगिनी अभवत् परमेश्वर महोदय
यस् मेम्
एतत् पठतु महोदय
वक्ता प्रत्ययरूपाणि गच्छति गत्वा क्रीणाति क्रीत्वा पठति पठति पठित्वा पिबति पीत्वा शृणोति श्रुत्वा सारि शृणोति श्रुत्वा नयति नीत्वा ददाति दत्त्वा पश्यति दृष्ट्वा देर् इट् चेञ्जस् पश्यति दृष्ट्वा वदति उक्त्वा सारि उक्त्वा न पूच्छति पृष्ट्वा
पृच्छति पृष्ट्वा सो अत्र
पृच्छति
पृष्ट्वा न न अहं वदामि यत् अत्र पठति इत्वा पठित्वा लिखति लिखित्वा एवमेव भवति सो साधारणतया एवमेव भवति परन्तु अत्र धातुं पश्यामः चेत् अत्र क्री इति अस्ति क्री धातु पिबति पा धातु धातु अस्ति पा नयति धातु अस्ति नी पश्यति धातु अस्ति दृश्य
दृश्यति ओके
दृश्य पृच्छति पृच् इति अस्ति.
What is the meaning of pichyati?
To ask.
Ah, okay, okay.
Ah, pichyato iti. Ah, pochna. Ah, satyam. Astu, agre? Anya kopi asti va? Usha bhagini aham shrutavati dvani hi.
No, I didn't say anything, bhagini.
Ah, no, no, no. I heard your voice iti vadami.
Ah. Oh, okay. Ah. I came after a long time.
Aam, aam, aam. अस्तु भगिनि पठतु लेप् पठतु.
Are you telling me?
आम् आम्
ल्यप् यदा धातुः उपसर्गेण युक्तः भवति तदा त्वा प्रत्ययस्य स्थाने ल्यप् प्रत्ययः भवति. उपसर्गः योगः धातुः ल्यप् अस्ति रैट्
ल्यप् भवति
ल्यप् भवति. उदाहरणम् उदाहरणमेव
उदाहरणम्
आ योगः गम् आगत्य भवति. प्रयोगः क्षाल् प्रक्षाल्य भवति.
सत्यम्. एतदपि पठतु.
पिदधाति पिदधाति पिद्धाय उत्तिष्ठति उत्थाय आजिघ्रति आघ्राय आनयति आनीय आह्वयति आहूय परिहरति परिहत्य परिहृत्य
कृत्य
स्वीकरोति स्वीकृत्य निर्वहति निरुह्य ओके. सो वा बिकम्स् या इस् वहति विल् बिकम् निरुह्य अनुवदति अनूद्य निश्वसिति निश्वसिति निश्वस्य. So here what he is saying is the dhatu will what is the equation he gave? Udaharanam upasarga yogah
dhatu. So atra kevalam gam dhatu asti chet gatva parantu a yoge a gatya iti bhavati. सो अत्र क्षाल् एव अस्ति चेत् क्षालयित्वा परन्तु प्रयोगे प्रक्षाल्य इति भवति. उदाहरणानि एवम् अस्ति
भगिनि. अजिघ्रति वाट् इस् अजिघ्रति?
सो अत्र जिघ्रति इस् टु स्मेल्
अजिघ्रति अजिघ्रति.
सो अत्र जिघ्रति इस् टु स्मेल्.
ओ स्मेल्
आजिघ्रति अपि समान अर्थमेव आजिघ्रति.
भगिनि पिदधाति वाट् इस् पिदधाति?
पिदधाति इस् टु क्लोस् पिदानं करोति
पिदानम् ओके पिदधाति क्लोस् भगिनि.
आं भगिनि वदतु.
भगिनि that means upsarga only a or pra asti then only tya tya
yeah
bhavat. So not other upsarga.
No all upsarga. So atra pashya
bhagini in the case of nirvahati what is ni is the upsarga, what is the
right
dhatu for vahati?
कुत्र भगिनि वहति वदति
निर्वहति
वहति रैट्. उदाहरणार्थम् अहं भारं वहामि
धातु फर् इट् बिकास् वी आर् टेकिङ्ग् द धातु आण्ट् वी
this is the kriya padam. Vahati is the kriya padam. To that we add the nir.
Bhagini, what would be the kvant padam for vahati?
Vahati va udva.
Oh, completely different. Okay,
very different. Very different.
Yeah. A lot of these words are new, Bhagini. Would you kindly give us the meaning? Like, what is pariharati?
Astu. Harati, pariharati is to quit.
Solve.
To remove.
Remove.
Oh, pariharam.
Harati, pariharam. Yeah.
Oh, both mean the same, is it?
Yeah, harati, pariharati. So, I know, okay. Yes, so, like, you know, aham pariharami means I am quitting it. Pariharami.
But Bhagini,
but the pariharam is a different meaning, right?
Pariharam.
Pariharati is different and pariharam is different.
Correct. So, atra, when we say harayati, so harayati means I'm removing from some place, pariharam. Here, pariharati, I give it up on my own. Udaharnatam, patati, aham patami, I am studying. Patayami, I am making somebody study. So, haram is different, pariharam.
Yeah. And then this shwasiti, I'm not able to understand.
Shwasiti is to breathe, kalo. Shwasam.
Shwasiti, okay.
Aham shwasimi, itikte aham shwasam karomi, iti. So, atra, nishwasam itikte to take a quick breath, like that, nishwasam.
So, what is this, nirvahati and anuvadati are very different, no?
Correct. It becomes the O, like the V will take the O.
Akshara. Okay. So, Anu here and you have a Niru. Niru.
Yeah, this is Anudhya. Anudhya
and Niru here.
Niru here.
And I think Gopika Bhagini's question is answered here. So, Sui is the Upasarga, no Bhagini?
It's a good question, but Svi is a upasarga vat bhavati. So let me go to the upasarga chapter. Ekanimsha. Yeah, so this is the upasarga chapter. Kalo? Upasarga. So, atra, svi is not a upasarga.
Oh, okay. Okay.
Dhanyavada.
Chintamastu. Uttama prashnaha. So, atra, svi is not an upasarga. So, they explain it like this. Kutra asti. So, atra. Nir, anu, puti, ushni, alam. Tatra nasti.
Upasarga.
Here. Atra. Svi, ushni, saji, ityadayaha, api upasarga tulyaha eva. Like equal to.
Comparable to. Okay.
Comparable. Samana. Upasargavat. Upasarga tulyaha bhavati. Vastutaha ete cheap. Oh, this is what you were asking, Bhagini.
Yes, ma'am.
Cheap pratyayanta iti uchyante. Cheap pratyayanta.
Dhanyavada, Bhagini. So beautifully explained by you.
No, by here, Bhagini. I didn't do anything. It's here. Svi iti vastutaha ete cheap pratyaya. I forgot this and Gopika Bhagini remembered it. Dhanyavada, Bhagini.
Bhagini, how to pronounce? Chi.
Chi.
Chi. Okay.
So is that a chi pratyaya?
No. It is chvi eva. Chvi.
Is it a chvi pratyaya? Upasarga?
Yeah, upasarga. Like if it is not an upasarga, like udaharanam svi ushni sajji iti adayah like starting with this itite etc iti upasarga tulyah eva vastutah ete chvi pratyayanta iti uchyante. So they are not upasarga is which goes before the dhatu kalo paranto atra they are calling it a different word pratyaya which means it goes after the word like the tvantam padam like that pratyaya iti dhatoh anantaram bhavati. अस्तु वयम् अत्र स्मः. अस्तु अभ्यासं प्रति गच्छामः वा? अस्तु गोपिका भगिनी आरम्भं करोतु. प्रभाकरः विच् वन् भगिनि?
दिस् ओ दट् वेण्ट् आफ् च्व च्व संथिङ्ग्
ओके ओके च्वि
च्वि च्वि.
Okay, so atra, what they are saying is, in the upasarga, we can add upasarga. Kalo, bhavati, prabhavati. Karoti, akaroti, nirakaroti.
Nirakaroti.
So, ete upasarga ha iti. Paranto, alam, bahis, antar, ityadayaha api, upasarga tulyaha bhavati. उपसर्गं वयं कथम् उपयोगं कुर्मः तथा एव एतानि पदानि अपि तथा एव उपयोगं कर्तुं शक्नुमः. उदाहरणं करोति कृ धातु अस्ति चेत् अलं करोति. परन्तु अत्र अलम् इत्युक्ते पर्याप्तम् इति अर्थे इत्युक्ते मास्तु इति अर्थे भवति. परन्तु करोति इति योजयामः चेत् भिन्न अर्थं भवति. अलङ्करोति बहिष्करोति इत्युक्ते बहिः स्थापयति गमयति इति लैक् मेड् हिम् गो औट्सैड् बहिष्करोति इति एवमेव बहिष्करोति. सो अत्र एवमेव स्वी उष्णि सज्जि इत्यादयः अपि उपसर्गतुल्याः एव. So, they are called Chvi Pratyayanta.
Oh, they are called as Chvi
Pratyayanta. They are called as Chvi Pratyayanta. Savateva.
It looks the same as the second point, no? Like Alam, Karoti.
It looks the same as the second point. But they are not Upasarga. In fact, so Vastutaham is in fact.
So this alam and bahis and antar, they're also chit pratyaya.
This I'm not sure, Bhagini, but this is definitely chvi pratyaya. Yeah. It's a good question, so we have to analyze that.
What is sajji karati? Sajji karati to arrange. Okay.
Bhagini Sundar explained it is there, right?
Yeah, very good. Very good explanation is here. Astu. And Gopika Bhagini.
Bhagini. प्रभाकरः पाठं पठित्वा वार्तां श्रुतवान्.
वार्तां श्रुतवान्. सो अत्र शृङ्गलारूपेण वदतु इति अस्ति. पाठं पठित्वा वार्तां अस्तु अग्रिममपि करोतु.
भगिनी किञ्चित् नोयिस्
बृहत् करणीयं वा?
नोयिस् किञ्चित् अस्ति
भगिनि. अस्तु अहं म्यूट् करोमि. सर्वान् म्यूट् करोमि. ये वक्तुम्
सो वाट् वास् द फस्ट् वन् भगिनि? प्रभाकरः पाठं कृत्वा पठितवान् पाठं पठितवान् वार्ता श्रुतवान्
वार्तां श्रुतवान्. अस्तु, प्रथमं सः क्षीरं पीत्वा पाठं पठितवान्। सो अत्र प्रभाकरः पाठं पठितवान् अनन्तरं वार्तां श्रुतवान् इति अस्ति। अस्तु, गोपिका भगिनी वदतु।
भगिनी शृङ्खला इत्युक्ते लैक् श्रुत्वा पठित्वा वितौट् एनी ब्रेक् पठितवान् अन्ते एव वदनीयं वा?
अन्ते एव पाठं अत्र क्षीरं पीत्वा पाठं पठितवान् अनन्तरं पाठं पठित्वा वार्तां श्रुतवान् अनन्तरम् एव।
अस्तु, प्रभाकरः पाठं पठित्वा वार्तां श्रुतवान्।
वार्तां
प्रभाकर अस्तु
वदतु वदतु प्रभाकरः
प्रभाकरः उत्तरं लिखित्वा
अत्र वार्ता
ओके ओके भगिनि वार्तां श्रुत्वा उत्तरं लिखितवान्।
सत्यं, सम्यक्। वार्तां श्रुत्वा उत्तरं लिखितवान्। अस्तु अस्तु, अग्रे केतकि भगिनि।
आं भगिनि, प्रभाकरः शालां
न उत्तरं
प्रभाकरः उत्तरं लिखित्वा शालां गतवान्।
न भोजनं
ओ ओ कण्टिन्यू उत्तरं लिखितवान्
भोजनं लिखित्वा
लिखितवान्
वान् न वा लिखित्वा
लिखित्वा भोजनं कृतवान्
कृतवान्। अस्तु, अग्रे मालति भगिनी वदति वा?
ओ आम् I try, ma'am.
आं भगिनि प्रयत्नं करोतु। प्रभाकरः भोजनं
This is not I'm not able to. It got stuck in my phone.
ओ अस्तु अस्तु
ओके वन्
सेकेण्ड् सो सो इट्स् ओके भगिनि ऐ विल् रीड् इट् टु यु। भोजनं कृतवान् शालां गतवान्
भोजनं
कृतवान् शालां गतवान्। सो अत्र कृतवान् इति स्थाने त्वान्तपदम्
ओके भोजनं कृत्वा
उत्तमं
शालां गतवान्
गतवान्। अस्तु, सम्यक् भगिनि। शारदा भगिनि चिन्ता मास्तु भगिनि, अग्रे शारदा भगिनि अस्तु, सन्ध्या भगिनी
प्रभाकरः शालां गत्वा प्रश्नस्य उत्तरं दत्तवान्।
उत्तमम्, अस्तु। सन्ध्या भगिनी
नेक्स्ट् वन् आल्सो भगिनी
नो वि गो ऐ एम् सारी क्षम्यतां। सविता भगिनी
आं भगिनी, प्रभाकरः प्रश्नस्य उत्तरं दत्वा क्रीडाङ्गणे क्रीडितवान्
क्रीडितवान्। अस्तु, परमेश्वर महोदय।
प्रभाकरः क्रीडाङ्गणे क्रीडित्वा व्याकरणं ज्ञातवान्
अस्तु, सम्यक्। अस्तु, अग्रे उषा भगिनी
भगिनी प्रभाकरः क्रीडाङ्गणे क्रीडित्वा
तत् अभवत् भगिनी, अग्रे
व्याकरणं ज्ञात्वा लेखनीं क्रीतवान्
लेखनीं क्रीतवान्। अस्तु, अन्य कोऽपि अस्ति वा? शारदा भगिनी
श्रूयते वा भगिनि?
इदानीं शृणोमि।
प्रभाकरः लेखनीं क्रीत्वा चित्रं दृष्टवान्
दृष्टवान्। अस्तु अस्तु, अग्रे भवती एव समापयतु।
प्रभाकरः चित्रं दृष्ट्वा फलं खादितवान्।
सम्यक्, सो अत्र त्वान्तं भवति। सो एकमेव वाक्ये वदामः चेत् कथं भवति? प्रभाकरः क्षीरं पीत्वा
वार्तां श्रुत्वा उत्तरं लिखित्वा भोजनं कृत्वा शालां गत्वा प्रश्नस्य उत्तरं दत्त्वा क्रीडाङ्गणे
क्रीडित्वा
व्याकरणं ज्ञात्वा
लेखने
क्रीत्वा क्रीत्वा चित्रं दृष्ट्वा फलं खादितवान्
दीर्घवाक्यम्
अनन्तरं निद्रां कृतवान् श्रान्ता अस्तु अग्रे अत्र उपसर्गसहितधातु अस्ति अधः उपसर्गः त्वान्तं रूपं च निर्दिष्टम् अस्ति निर्दिष्टम् अस्ति इत्युक्ते दत्तम् अस्ति युक्तं ल्यबन्तरूपं रिक्तस्थाने लिखत अस्तु पुनः गोपिका भगिनी एव पदद्वयं करोतु
आम् भगिनि परियोगः शीलयित्वा परिशील्य आयोगः नीत्वा आनीय
आनीय सम्यक् आनीय परिशील्य अवगच्छन्ति वा सर्वे किं करणीयमिति गत्वा आगत् य भवति य भवति अस्तु केतकि भगिनि
प्रयोग प्रदर्शय उक्तस्थित्वा उत्थाय
उत्थाय उत्तम उत्थाय स्थित्वा उत्थाय अस्तु मालति भगिनि
प्र प्लस् क्षालयित्वा दट् इस् क्षाल रैट् क्षाल अन् देन् प्रक्षालयित्वा
प्रक्षाल्य इति सम्यक् सम्यक् प्रक्षाल्य सम्यक्
प्रक्षाल्य अण्ड् वि क्रीत्वा विक्रिय रैट्
विक्रीय अस्तु
क्रिय
अस्तु अग्रे शारदा भगिनी
उपयोगः हसित्वा उपहस्य उपहास्य
उपहस्य एव खलु उपहस्य
अनुयोगः उक्त्वा अनुद्य
अनुद्य इति भवति अनुद्य
केन् यु रैट् दट् भगिनि
सो अत्र अस्ति अहं उदाहरणे अस्ति एकनिमिषं भगिनि नास्ति वा अनुद्य अनुवदति अनुद्य अनुद्य इति भवति सो वदति वदतु
ऐ नोटिस् दीर्घ उ इस् यूस्ड् इन् अनुद्य
अनुद्य
anuvadati it is hrasva u again is that normally the convention I mean when you convert
na kimartam itikte vadati iti padasya tvantarupam vastutaya uktva na uditva eva uditva
okay
but for now we are learning uktva uditva So, atra okay. O plus O will become O.
O, okay. Okay.
Tata bhavati. Okay. Good question. Astu. Anudya iti bhavati. Astu. Agre? Sharada bhagini, abhavatva. Sandhya bhagini.
Parish yoga kritva, parishkritya.
Samya. Parishkritya.
निर्योग आयोग कृत्वा निराकृत्य
निराकृत्य निराकृत्य इत्युक्ते किं शेप्लेस् वा किं भगिनि
आकृति एफेक्ट् शेप् सो निराकृत्य निराकृत्य शेप्लेस्
ओ अस्तु अस्तु अत्र अङ्गीकृत्य इति पदस्य विरुद्धार्थक निराकरोमि इति आकृत्य निराकृत्य दट् इस् आल्सो गुड् ऐ थिङ्क्
आकृति शेप् निराकृत्य शेप्लेस् ऐ
तदपि भवितुम् अर्हति तदपि भवितुम् अर्हति अस्तु अग्रे सविता भगिनि
भगिनि सारि उक्त्वा एण्ड् अनूद्य मीन् द सेम् इस् इट् एस् इन् द मीनिङ्ग्
द मीनिङ्ग् इस् द सेम् उक्त्वा इस् द त्वान्तं पदं फार् अनदर् धातु काल् ब्रू धातु
ब्रू ओके
also
sorry bhagini one more question with your permission previous word vikriya is different from vikraya right I mean that is vikraya is to sell isn't it
samyak vikrayanam is to sell so this is kritva is to buy
okay so it would be actually the exact opposite
what does vikraya mean
vikritva is to sell eva
but she just knows that vikraya right
yeah vikriya
okay the same as vikriya
vikriya samanarthaka padam eva
vikriya
Fourth means sell, is it Bhagini?
Aam Bhagini.
Oh, okay.
So, atra, to buy is to kri kalu, kri thwa. Vikriya,
Vikriya, Vikraya would be sell, I think.
To sell, yeah. Vikriya is to sell, I'm sorry. Vikriya is to sell. Kevalam kri is to buy.
But there's no
vikraya,
right?
There is
yeah.
no vikraya.
So, atra, the kri dhatu is there. So, the kri thwa means after buying.
I know, but I'm saying that there is no word as vikraya.
It's there, Bhagini. That also is to sell.
Yeah. Vikrayanam is to sell. The krayanam.
So
krayanam is to buy so krayanam is to buy vikrayanam is to sell so that vikrayanam is the so the vikrayanam karomi so that vikrayanam athava krayanam they are all bhavavachaka pada
aham opposite word right bagini
opposite viruddhataka udaharanartham aham aapanam gatva क्रीणामि अहम् आपणं गत्वा क्रयणं करोमि देन् इट् बिकम्स् द भाववाचकपदम् अथवा अहम् आपणं गत्वा फलं क्रीत्वा खादामि आपणिकः किं करोति आपणिकः विक्रयणं करोति विक्रीणाति विक्रीय धनं सम्पादयति अवगच्छन्ति वा सो वेन् ऐ से क्रयणम् अण्ड् विक्रयणं दट् इस् भाववाचकपदम् आम् भगिनि विक्रयणं करोति आपणिकः विक्रयणं करोति ग्राहकः क्रयणं करोति विक्रयणमेव
अस्तु भगिनि
आपणे विक्रयः भवति विक्रयः इस् पुल्लिङ्गपदं न भगिनि
आपणे विक्रयः भवति क्रयणं विक्रयणं भवति. आपणे क्रयणं विक्रयणं च भवति.
नो, इफ् ऐ हाव् टु यूस् द विक्रय पुल्लिङ्ग नामपदम्, ऐ केन् से इन् द शाप् सेल् हेपन्स्. आपणे विक्रयः भवति.
हा, विक्रयः भवति.
बहुवचनं.
विक्रयः एकवचनमेव खलु, विक्रयः. अस्तु, सविता भगिनी वदति वा?
11th वन् भगिनि. अनुयोग भूत्वा अनुभूत्य
अनुभूय
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 आयोग कृत्वा आकृष्ट्वा
आकृष्य बिकास् वित् द उपसर्ग इट् चेञ्जस् अ लिटल् बिट् भगिनि.
आयोग कृत्वा आकृष्य
आकृष्य. अस्तु,
वाट्स् द मीनिङ्ग् भगिनि आकृष्य?
आकृष्य इति आकरणं
भगिनि.
किम्
अट्राक्ट्?
करेक्ट् करेक्ट्.
वाट् डस् इट् मीन् आकृष्य मीन्स् वाट्
आफ्टर् हेविङ्ग् अट्राक्टेड्
अनुभूत्वा अनुभूत्य
अनुभूय अनुभूय
अनुभूय अनुभूय after experiencing.
After experience, correct.
Not to experience.
No, after experience.
Anubhuya, okay.
Astu. Agre, and Parameshwar Mahodaya? Prashna vadatu bhagini.
Anu yogatva anudya can it once again? Samita.
चिन्ता मास्तु. सो अत्र उदाहरणम् अहं दर्शयामि, एकनिमिषम्. अनुवदति अनूद्य. सो अत्र वदति इति पदस्य त्वान्तरूपं वस्तुतया उदित्वा एव. सो अत्र अनु प्लस् उदित्वा अनूद्य भवति.
अस्तु अस्तु,
दीर्घ ओकारः भवति.
ओ अस्तु, अवगतम्.
अस्तु, कुत्र गतवती अहम्?
नाय्स् कमिङ्ग् भगिनि.
हूएवर् इस् इट् दे हेव् टु म्यूट् इट् भगिनि. अस्तु, अग्रे परमेश्वर महोदय.
विच् वन्?
एतत् करोतु.
सं योग मार्जयित्वा सम्मार्ज्य.
उत्तम, सम्मार्ज्य.
सम्मार्ज्य प्र प्लस् आत्वा प्राप्त्या
प्राप्य
प्राप्य प्राप्य प्राप्य प्राप्य
प्राप्य. अस्तु, उषा भगिनी.
आ प्लस् भूत्वा आहूय.
आहूय, उत्तमम्. आहूय
योग स्मृत्वा विस्मृत्य.
विस्मृत्य. सो अत्र त्वा अपि तकारः अस्ति विस्मृत्य, परन्तु अत्र नास्ति. किमर्थं तथा एव भवति? प्राप्य, परन्तु स्मृत्य.
प्राप्य,
अत्र अत्र प्राप्य, परन्तु अत्र विस्मृत्य. अस्तु, अन्य कोऽपि अस्ति वा? यस्य नाम अहं न
मालति.
न, पुनः चक्रं करो. अस्तु अस्तु, तर्हि गोपिका भगिनि.
आं भगिनि. योगः श्वसित्वा
निश्वस्य अस्तु
रूढ्वा अर्थः वदतु
रूढ्वा इत्युक्ते उपरि वृक्षं रूढ्वा इति आहूत्य मीन्स् लैक् आह्वयति खलु आह्वयति
ओके
सो सो दिस् इस् एक्चुलि ह्वयति सम्यक् ह्वयति आहूय आहूय विस्मृत्वा वि प्लस् स्मृत्वा विस्मृत्य फगाट्
या देट् ऐ नो द नेक्स्ट् वन् निश्वस्य
इस् टु टेक् अ क्विक् ब्रेत् लैक् लैक्
क्विक् ब्रेत् ओ श्वास ओके
श्वास सो अत्र रूढ्वा लैक् नो आरोहणम् अवरोहणम् अस्ति खलु सो आरूढ्य so okay. It goes up
aruhya
so we get arohanam
okay astu arohanam
aruhya arohanam avaruhya avarohanam avarohanam karoti that becomes a bhavavachaka padam arohanam avarohanam iti अस्तु केतकि भगिनि
इन् आरुह्य इट् इस् ह्रस्व उ रैट्
आम् 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 ह्रस्व इट् बिकम्स् ह्रस्व
धन्यवादः
आक्चुलि इट् इस् ह्रस्व
ह्रस्व ओके
क्षम्यतां भगिनि इस् नाट् ह्रस्व न दीर्घ एव भवति आरुह्य एव
ओ ऐ सि ओके
आरुह्य 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 एव
निर्दृश्य प्रस्थाय रैट् भगिनि
अस्तु अस्तु प्रस्थाय निर्दृश्य निर्दृश्य वा
निर्दृश्य
निर्दृश्य एव दि दि एव
निर्दृश्य
न
दृश्य दृश्य
न इट्स् नाट् द्र खलु ओन्लि दिष्ट्वा एव
दिश्य नेक्स्ट्
नेक्स्ट् मालति भगिनि
अस्तु आ प्लस् घ्रात्वा उत् प्लस् दीत्वा
उद्दीय
वाट् इस् द मीनिङ्ग्
सो दीत्वा मीन्स् टु fly away fly away so uddiya means from the so atra uddiya ittite from the sitting position she jumped up and flew away the bird uddiya
uddiya how would you write this bhagini
so we have a connection
is it
da
Uddiya.
So atra we have some sandhi things going on here. So atra takaraka will become a dakara. Uddiya like that. Uddiya.
What is agraya?
Agraya means to smell eva.
Oh, ghranam. Okay. Agraya.
Which language do you speak, Bhagini?
Telugu.
See, you know all the
but vocabulary. I know Hindi also, so
very good,
a bit of this and that, but still I'm not good at Sanskrit.
No, Bhagini, it's okay, you know, you're very good in vocabulary, that is a very big deal. Uttama. Agraya, astu. अग्रे शारदा भगिनी.
आ योग चादयित्वा आच्छादय
आच्छाद्य 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 इत्युक्ते लैक् मेघाः सूर्यम् आच्छाद्य
टु कवर्
टु कवर् कवरिङ्ग् टु कवर् अस्तु.
निस् योगः चित्वा निश्चय
निश्चित्य
निश्चित्य
निश्चित्य. So the sakara will become shakara and then tya, nishchitya.
Oh, they'll not nishchitya
see. Nishchitya means after determining it. Nishchayam karoti, nishchitya evam kritavati iti atte bhavati. Sandhya Bhagini?
Nil yoga udva nirudhya.
सो अत्र डकारः विल् टेक् विल् बिकम् ह. उदाहरणार्थम् अत्र अत्रापि तथा एव अस्ति. कुत्र अस्ति
निरुह्य
ओ रैट् सैड् अस्तु
अधः
अधः
वा.
So, atra aruhya. So, the dakara will become hakara.
Hakara. Okay. Okay. Niruhya.
Niruhya.
What is it? Niruhya? Coming down?
No. Udva. Oh, yeah. So, udva is to bear it. Bear something, I think. Odum. न शक्नुमः लैक् सोढुं न शक्नुमः निरुह्य. अस्तु ऐ एम् नाट् एबल् टु एक्स्प्लेन् भगिनि. ऐल् टेल् यु इन् इन् वन् मिनिट् ओके. अस्तु निरुह्य अत्र निरुह्य एव ऊ न भवति निरुह्य निरुह्य
नी वेदयित्वा निवेद्य
निवेद्य. अस्तु सम्यक्. So, atra, I'm going to check the dictionary, okay? Ekanimsham. Udva. I don't think I'll find it. Ekanimsham. Niruhya. Nabhavati. Astha.
Bhagini, Nivedya is offering, right?
Offering, offering. Offering and also to tell.
Nivedanam.
Nivedanam kritavan. So, Nivedayati. So, if it's like a long thing, we say katayati, right? We don't say vadati. So, different
ways. And what would be Vedayitva, Bhagini? Vedayati? Does it also mean the same?
वेदयति न जानामि भगिनि. ऊढ्वा ओके. सो अत्र ऊढ्य
भगिनि
वहति या टु बेर् एव. Vodam. Yeah, this is to bear, Bhagini. Niruhya. To bear. To bear.
To bear.
To bear,
okay.
And you also asked Vedayati, right? Vedayati.
Ni plus Vedayatva.
Vedayati. I doubt.
Vedya means offering, I think. I don't know.
Vedya is offering.
Vedya is offering. I'm just Nivedya looking at Veda. Veda is to learn. Kalu, vid.
Learn.
It comes from vid.
Yeah.
No, I'm not able to find. Just सो अत्र निवेदयति इस् टु आफर् नैवेद्यम् इस् वाट् इस् आफर्ड् लैक् दट्
ओ अस्तु
समयः अभवत् समापयामः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति
शान्ति हरिः ॐ हरिः ॐ धन्यवादः
धन्यवादः
धन्यवादः भगिनी
शुभदिनं
धन्यवादः
Have a nice day.
Have a nice day, Maria.